नमस्सर्वेभ्यः अद्य लघुसिद्धान्तकौमुद्यां समासप्रकरणे तत्पुरुषसमासस्य आरम्भं कुर्मः यत्र द्वितीया तत्पुरुषसमासः कथ्यते येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मिमुनित्रयम् नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम् आदौ लघुसिद्धान्तकौमुद्याः मूलं पठामः अव्ययीभावं पूर्णं पठामः इतः परं वर्गे अव्ययीभावस्य पठनं न भवति किन्तु सप्ताहे एकवारं वा भवद्भिः गृहे पठ्यते चेत् उपयोगाय भवति अव्ययीभावः अधिकारोऽयं प्राक् तत्पुरुषात् अव्ययं विभक्ति समीप समृद्धि विरुद्धि अर्थाभाव अत्यय असंप्रति शब्दप्रादुर्भाव पश्चात् यथा आनुपूर्व्य यौगपद्य सादृश्य सम्पत्ति साकल्य अन्तवचनेषु विभक्त्यर्थादिषु वर्तमानम् अव्ययं सुबन्तेन सह नित्यं समस्यते सः अव्ययी भावः प्रायेण अविग्रहः नित्यसमासः प्रायेण अस्वपरविग्रहो वा विभक्तौ हरि नि अधि इति स्थिते प्रथमानिर्दिष्टं समास उपसर्जनं समासशास्त्रे प्रथमानिर्दिष्टम् उपसर्जनसंज्ञं स्यात् उपसर्जनं पूर्वं समासे उपसर्जनं प्राक् प्रयोज्यम् इति अधेः प्राक् प्रयोगः सुपोलुक् एकदेशविकृतस्य अनन्यत्वात् प्रातिपदिकसंज्ञायां स्वाद्युत्पत्तिः अव्ययीभावश्च इति अव्ययत्वात् सुपोलुक् अधिहरि अव्ययीभावश्च अयन्नपुंसकं स्यात् नाव्ययीभावादतों स्वपञ्चम्याः अदन्तादव्ययीभावात् सुपो न लुक् तस्य पञ्चमीं विना अमादेशश्च स्यात् गाः पातीति गोपाः तस्मिन् इति अधिगोपम् तृतीया सप्तम्योर्बहुलम् अदन्तादव्ययीभावात् तृतीया सप्तम्योः बहुलम् अम्भावः स्यात् अधिगोपम् अधिगोपेन अधिगोपे वा कृष्णस्य समीपम् उपकृष्णम् मद्राणां समृद्धिः सुमद्रम् यवनानां विरुद्धिः दुर्यवनम् मक्षिकाणामभावः निर्मक्षिकम् हिमस्य अत्ययः अतिहिमम् निद्रा सम्प्रति न युज्यते इति अतिनिद्रम् हरिशब्दस्य प्रकाशः इति हरि विष्णोः पश्चात् अनुविष्णु योग्यता वीप्सा पदार्थ अनतिवृत्ति सादृश्यानि यथार्थाः रूपस्य योग्यम् अनुरूपम् अर्थमर्थम् प्रति प्रत्यर्थम् शक्तिम् अनतिक्रम्य यथाशक्ति अव्ययीभावे सा काले सहस्य सहस्यादव्ययीभावे न तु काले हरेः सादृश्यम् सहरि ज्येष्ठस्य आनुपूर्व्येण इति अनुज्येष्ठम् चक्रेण युगपत् स चक्रम् सदृशः सख्या स सखि क्षत्राणाम् सम्पत्तिः स क्षत्रम् तृणमपि अपरित्यज्य स तृणम् अस्ति अग्निग्रन्थपर्यन्तम् अधीते साग्नि अव्ययीभावे सा काले नदीभिश्च नदीभिः सह सङ्ख्या समस्यते समाहारे च अयमिष्यते पञ्चगङ्गम् द्वियमुनम् तद्धिताः आपञ्चमपसमाप्तेरधिकारोऽयम् अव्ययीभावे शरत्प्रभृतिभ्यः शरदादिभ्यः टच् स्यात् समासान्तः अव्ययीभावे शरदः समीपम् उपशरदम् प्रतिविपाशम् जरायाः जरश्च उपजरसम् इत्यादि अनश्च अन्नन्तात् अव्ययीभावात् टच् स्यात् नः तद्धिते नान्तस्य भस्यतेः लोपः तद्धिते उपराजम् अध्यात्मम् नपुंसकादन्यतरस्याम् अन्नन्तम् यत् क्लीबम् तदन्तादव्ययीभावात् टच् वा स्यात् उपचर्मम् उपचर्म झयः झयन्तादव्ययीभावात् टच् वा स्यात् उपसमिधम् उपसमित् इत्यव्ययीभावः गतवर्गे अस्माभिः समासान्ताः अधीताः अव्ययीभावे ये समासान्तप्रत्ययाः भवन्ति तेषाम् अध्ययनं कृतं तत्र एतेषां विग्रहाणां समस्तपदं किं भवति इति वक्तव्यं तत्र कः नियमः एकवारं स्मरामः यदि शरदादिगणे सः शब्दः अस्ति तर्हि नित्यं टच् भवति यदि अन्नन्तः पुल्लिङ्गः अथवा स्त्रीलिङ्गः तर्हि नित्यं टच् भवति यदि अन्नन्तः नपुंसकलिङ्गः तर्हि विकल्पेन टच् भवति अन्यः झयन्तः शब्दः चेत् विकल्पेन टच् भवति इयं व्यवस्था एतदाश्रित्य एतेषां विग्रहाणां किं भवति इति पश्यामः ये वक्तुमिच्छन्ति वक्तुमर्हन्ति मनसि किं भवति समस्तपदम् अधिमनस् किमपि उत्तरमस्ति वा शरदादिगणः शरदादिगणे मनःशब्दः अस्ति शरद् विपाश् अनस् मनस् तर्हि तत् नित्यं भवति टच् भवति चेत्
अधिमनसम्
अधिमनसम् इति रूपम् अधिमनस् अस्पष्टतः अतः अधिमनस इति अकारान्तं भवति अकारान्तं भवति चेत् अव्ययीभावात् अतोऽंशसंज्ञाः इत्यनेन अमादेशः अधिमनसम् इति रूपम् हिमवतः समीपम्
उपहिमवतम्
उपहिमवतम् अत्रापि हिमवत् शब्दः अपि शरदादिगणे अस्ति यदि अव्ययीभावसमासे उच्यते आदौ अयं गणः द्रष्टव्यः परीक्षायां न दीयते चिन्ता मास्तु किन्तु सामान्यतः यदि ज्ञातव्यं तर्हि आदौ शरदादिगणः द्रष्टव्यः तत्र अस्ति चेत् तत् नित्यम् अतः हिमवत् शब्दः अपि अस्ति उपहिमवत हिमवत् हिमवत अतः उपहिमवतम् इति रूपम् हिमवतः समीपम् उपहिमवतम् वाक् सम्प्रति न युज्यते अत्र किं रूपम्
अतिवाचम् अथवा अतिवाच
अथवा
अतिवाच
अतिवाच इति कथं भवति
टच् अभावे बिकास् वाक् इस् नपुंसकलिङ्गम्
वाक् इस् स्त्रीलिङ्गम्
ओके देन् ऐ थाट् इस् नपुंसकलिङ्गम्
राघवी न श्रुतम्
हयः
इत्यनेन वा टच् वाक् शब्दः शरदादिगणे नास्ति अतः झयः इत्यनेन वाच् इति चकारान्तः शब्दः चकारः झै वर्णः अतः विकल्पेन टच् भवति यदि टच् भवति तर्हि अधिवाच इति प्रातिपदिकं प्रत्ययः अमादेशः अधिवाचम् इति भवति टच् प्रत्ययः न भवति चेत् अधिवाच् इति चकारान्तं प्रातिपदिकं तस्य प्रथमाविभक्तौ अधिवाक् वाक् वाचौ वाचः एवम् अधिवाक् सकारस्य सकारादेशः भवति तत्र चोक्तिः इति सूत्रमस्ति अतः अधिवाक् अधिवाचम् इति क्षम्यताम् अतिवाक् अतिवाचम् वाक् सम्प्रति न युज्यते अतिवाक् अथवा अतिवाचम् साम्नि
अधिधाम
नपुंसकाद् अन्यतरस्य धामन् इति अन्नन्तः शब्दः स च नपुंसकलिङ्गे अस्ति. नपुंसकत्वात् नपुंसकाद् अन्यतरस्याम् इति विकल्पेन टच् भवति. यदि टच् भवति तर्हि किं भवति? नस्तद्धिते इत्यनेन किलोपः अधिधाम अधिधाम तस्य सुप्रत्यये अमादेशे अधिधामम् इति रूपम्. यदि टच् प्रत्ययः न भवति तदा अधिधामन् तु सुप्रत्ययस्य लोपः, नलोपः प्रातिपदिकान्तस्य नकारस्य लोपः अधिधाम. धाम्नि इत्यस्य अधिधामम् अधिधाम रूपद्वयम्. आत्मानम् आत्मानं प्रति
प्रत्यात्मानम्
कः शब्दः? आत्मन् इत्यस्ति.
आत्मन् शब्दः
टच् भवति. आत्मन् पुल्लिङ्गशब्दः अतः अनश्च इत्यनेन टच् भवति.
प्रत्यात्मन् टच् प्रत्ययस्य अकारस्य अमादेशः.
टच् प्रत्ययस्य अकारस्य अमादेशः न भवति. कस्य अमादेशः भवति? कस्य लोपः भवति?
मकारस्य अम् अकारस्य मकारस्य टिलोपः. एकनिमिषं भगिनि, ऐ गोट् सो जम्बल्ड् अप् इन्सैड् मै हेड्. प्लस् आत्मन् सो आफ्टर् दि सुपोधातुप्रातिपदिकयोः एण्ड् उपसर्जनं पूर्वं इट् बिकम्स् प्रत् आत्मन् प्लस् अ इस् द टच् टच् प्रत्ययः. दिस् अ नो 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 दिस् आत्मन् द टी आफ् दि आत्मन् विच् इस् अन् विल् बि लोपः बिकास् आफ् नस् तद्धिते एण्ड् देन् इट् विल् बि प्रत्यात्म प्रत्यात्म प्लस् अ एण्ड् सु औजस् अमौशस् सो सुप्रत्ययः विल् बि एडेड् एण्ड् बिकास् आफ् नाव्ययी भावात् अतोंस्व पञ्चम्याः इट् विल् बि अमादेशः आफ् द सो सोः अमादेशः देन् इट् विल् बि प्रत्यात्मानम्.
Where did you get the nakara from? You already deleted the nakara.
Okay.
Pratyatma tu pratyatma am amibhutaka ityanena purvarupe pratyatmam
pratyatmam. Okay.
Like achatmam it will be pratyatmam
anyatmam. Okay.
Atmanam atmanam prati tatra vipsayam avyayibhave अनश्च इत्यनेन टच् प्रत्ययः नस्तद्धिते लोपः अमादेशः प्रत्यात्मम् अन्ये केऽपि वदन्तु. प्रयत्नः कृतः वा न वा? गुणिनाम् अभावः गुणीनाम् अभावः किं भवति? निर्गुणं कथं भवति निर्गुणम् इति? सक्रियं वदतु. गुणिनाम् अभावः, न तु गुणानाम् अभावः, गुणिनाम् अभावः. शुभा भगिनी अन्यत् कृत्वा वदतु कथं प्रक्रिया कथं.
गुणिन् शब्दः इति मत्वा
प्रक्रिया
नकारस्य लोपः
प्रक्रिया साधितः गुणिनामभावः अलौकिकविग्रहः प्रक्रिया आरम्भतः प्रक्रियां वदतु. गुणिनामभावः
गुणिनामभावः सूत्र मलपाडु बन्दि गुणिन्न जस्
आम्
निर्
आम् निर् गुणिन् आम् निर्
आम् वा
षष्ठी किल
गुणिन् आम् निर् तदनन्तरं सुपो धातुप्रातिपदिकयोः इति सुब्लुक् गुणिन् निर् उपसर्जनं पूर्वम् इति पूर्वनिपातः निर् गुणिन् तत्र इदानीम् अस्माकम् अनश्च वा
अनश्च भवति वा
अय्यो न भवति वा
पृच्छामि भवति वा न वा इति गुणिन् अस्ति अन् अस्ति वा
अन्न नास्ति वा अय्यो अपो सरेण्डर् भगिनि
गुण इन् नकारान्तम् इति नोक्तं सूत्रे अन्नन्तम् इत्युक्ते यत्र अन् आत्मन् राजन् धामन् तत्रैव भवति रूपं भवत्या सम्यगेव उक्तं गुणिन् अत्र टच् न भवति जयन्तमपि नास्ति अतः न केनापि सूत्रेण टच् भवति अत्र समासान्तः नास्ति निर्गुणिन् इत्येव नकारान्तं प्रातिपदिकं निर्गुणिन् तु अव्ययादाप्सुपः इत्यनेन सुपः लुक् निर्गुणिन् नलोपः प्रातिपदिकान्तस्य इत्यनेन नकारस्य लोपे निर्गुणि भवति. निर्गुणिन् अन्नन्तादेव टच् भवति इन्नन्तात् टच् न भवति निर्गुणिन् इति प्रातिपदिकं निर्गुणि इति रूपम्. मरीचिकामपि अपरित्यज्य किं भवति सुधा भगिनी सुधा भगिनी न श्रूयते नीरजा भगिनी
समरीचिकां मरीचिका स्त्रीलिङ्गं भगिनि सो देर् इस् नित्यं टच् अप्लैड् फार् मरीचिका
टच् इस् वेर् टच् इस् ओन्ली इफ् इट् इस् अन्नन्त अण्ड् स्त्रीलिङ्ग नाट्
ओके ओके सो so it is not sharadadigana then it is not ananta
there is no touch
there is no touch
so you have the marichika then
marichika
how do we get adhishalam
right ह्रस्व नपुंसकयोः
ह्रस्वो नपुंसके प्रातिपदिकस्य
इत्यस्य
ह्रस्वः समरीचिक सु
ओके समरीचिक सु देन् औजस् अमौजस् सुप्रत्यय इस् अप्लैड् देन् अमादेशः सुप्रत्यय देन् इट् बिकम्स् सुमरीचिक प्लस् अम् एण्ड् अमिपूर्वः सो समरीचिकम्
समरीचिकम् मरीचिकामपि अपरित्यज्य समरीचिकम् इति भवति
समरीचिकम्
कर्मणः योग्यम् राघवि अनुकर्मम् एकमेव रूपम् कर्म इति किं लिङ्गं कर्मन् नपुंसकलिङ्गं तर्हि अनुकर्म कर्मन् इति अन्नन्तं नपुंसकं नपुंसकादन्यतरस्यामित्यनेन विकल्पेन टच् भवति टच् भवति चेत् अनुकर्मन् अ नस्तद्धिते इति तिलोपः अनुकर्म अमादेशे अनुकर्मम् इति भवति टच् न भवति चेत् अनुकर्मन् इत्येव प्रातिपदिकं सुलोपे नलोपः प्रातिपदिकान्तस्य इत्यनेन नलोपे अनुकर्म इति भवति समासान्ताः दीयन्ते इति सर्वत्र समासान्तः भवति इति न समासान्तः कुत्र भवति शरदादिगणे अस्ति चेत् भवति अथवा अन्नन्तः अस्ति चेत् भवति अथवा झयन्तः चेत् भवति एतत् किमपि नास्ति चेत् समासान्तः न भवति सामान्यप्रक्रिया लेखनीया अवगतम् इति मत्वा अग्रे चलामः एते तु प्रश्नाः समासान्तः नाम कः यः प्रत्ययः समासस्य अन्तावयवरूपेण विधीयते सः समासान्तः उदाहरणानि दृष्टानि अनश्च अनन्तादव्ययीभावात् टच् भवति अनन्तादव्ययीभावात् कः समासान्तः भवति अत्र टच् भवति यदि पुंलिङ्गं स्त्रीलिङ्गं नित्यं टच् भवति नपुंसकं चेत् विकल्पेन भवति सूत्रद्वयम् अपि उल्लेखनीयम् अव्ययीभावसमासे समासान्तप्रत्ययान् सोदाहरणं निरूपयत सर्वेषां प्रत्ययानां विषये लेखनीयम् अनेन वयम् अव्ययीभावसमासम् अव्ययीभावसमासप्रकरणं समापितवन्तः आदौ दृष्टं समासः चतुर्विधः भवति अव्ययीभावः तत्पुरुषः बहुव्रीहिः द्वन्द्वः इति तत्र विशेषसंज्ञा विनिर्मुक्तः केवलसमासः अपि भवति अधुना अस्माभिः केवलसमासः अव्ययीभावश्च अधीतः तत्र केवलसमासे पीठिका समासविधानं समासप्रक्रिया इति अंशत्रयम् अस्माभिः दृष्टं तत्र पीठिकायां किं दृष्टं समसनं समासः समासः अनेकयोः अनेकेषां पदानाम् एकपदीभवनम् एव समासः इत्युच्यते तत्र समासस्य चत्वारः प्रभेदाः भवन्ति अव्ययीभावः प्रायेण पूर्वपदार्थप्रधानः तत्पुरुषः प्रायेण उत्तरपदार्थप्रधानः बहुव्रीहिः प्रायेण अन्यपदार्थप्रधानः द्वन्द्वश्च प्रायेण उभयपदार्थप्रधानः इत्येवं चतुर्धा समासः भवति एतत् विशेषसंज्ञा विनिर्मुक्तः केवलसमासः अपि कश्चित् भवति समासे प्राधान्यनिर्णयः कथं भवति इत्यपि दृष्टवन्तः कथं भवति क्रियायाः गुणस्य वा अन्वयं कुर्मः चेत् येन पदार्थेन सह क्रियान्वयः गुणान्वयो वा भवति सः अर्थः समासे प्राधान्यम् आवहति इति ज्ञातम् समर्थः पदविधिः इति परिभाषा समासप्रकरणे सर्वत्र अन्वेति सामर्थ्ये सत्येव समासः यत्र एकार्थीभावरूपं सामर्थ्यं सामर्थ्यं परस्पर अन्वययोग्यता सामर्थ्यं द्विविधं वाक्ये परस्पर अन्वयः यत्र भवति तत्सामर्थ्यं व्यपेक्षा इत्युच्यते. समासे तु एकार्थीभावसामर्थ्यम् अपेक्षितम्. यत्र सामर्थ्यं नास्ति तत्र समासः न भवति. समासाधिकारः अष्टाध्याय्यां द्वितीयाध्याये प्रथमपादे द्वितीयपादे च अस्ति, तदपि ज्ञातवन्तः. वृत्तिः विग्रहः. वृत्तिः पञ्चधा भवति. कृत् तद्धित समास एकशेष सनाद्यन्तधातुवृत्तयः इति पञ्चवृत्तयः. वृत्तिः नाम परार्थबोधिका वृत्तिः इत्युच्यते. वृत्त्यर्थावबोधकं वाक्यं विग्रहः. येन वाक्येन वृत्तेः अर्थः अवगम्यते सः विग्रहः इत्युच्यते. विग्रहः द्विविधः, लौकिकः अलौकिकश्च. लोके अर्थबोधः येन भवति सः लौकिकः इत्युच्यते. यत्र तु प्रकृतिप्रत्ययविभागः प्रदर्श्यते सः विग्रहः अलौकिकः अथवा शास्त्रीयः इति कथ्यते. केवलसमासस्य विधानं भवति सहसुपा इति एकेनैव सूत्रेण. वस्तुतः तेन सूत्रेण किमुच्यते? सुबन्तं सुबन्तेन समस्यते. सामान्यतः समासः इत्युक्ते सुबन्तयोरेव. यत्र तु विशिष्य समासविधायकं किमपि सूत्रं नास्ति तत्र सहसुपा इत्यनेन समासः क्रियते. सः समासः केवलसमासः इति उच्यते. तत्र एकं वार्तिकम् अपि दृष्टम्. इवेन समासः विभक्त्यलोपश्च. कदाचित् विरलतया इव शब्देन सह अपि समासः भवति. तत्र पूर्वपदस्य सुप्रत्ययस्य लुक् न भवति इति सूत्रद्वयेन, एकेन सूत्रेण एकेन वार्तिकेन च केवलसमासः विधीयते. समासप्रक्रिया सामान्यतः कथं भवति? अलौकिकविग्रहः लिख्यते, तत्र समासविधायकेन सूत्रेण समासः भवति. ततः सुपो धातुप्रातिपदिकयोः समस्तस्य पदस्य समुदायस्य कृत्तद्धितसमासाश्च इत्यनेन प्रातिपदिकसंज्ञा भवति. प्रातिपदिक अवयवत्वात् सुप् प्रत्ययस्य पूर्वपदात् उत्तरपदात् उभयोरपि सुप्रत्ययस्य लोपः सुपोधातुप्रातिपदिकयोः इति सूत्रेण भवति. समासस्य प्रातिपदिकसंज्ञा अस्ति. अतः पुनः सुप्रत्ययः, समस्तं यद्भवति समुदायः तस्मात् पुनः सुप्रत्ययः क्रियते इत्येवं समासस्य सामान्यप्रक्रिया अपि ज्ञाता. ततः अव्ययीभावसमासप्रकरणे समासविधानं, समासप्रक्रिया, समासान्ताः इति त्रेधा विभागः. अव्ययीभावसमासविधाने सूत्रद्वयं लघुसिद्धान्तकौमुद्याम् अस्ति. एकम् अव्ययं विभक्तिसमीपसमृद्धिविरुद्धि अर्थाभावात्यया सम्प्रति शब्दप्रादुर्भाव पश्चाद्यथा आनुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु इति सूत्रेण एतेषु अर्थेषु विद्यमानम् अव्ययं सुबन्तेन सह समस्यते इति अव्ययीभावसमासस्य विधानं भवति. नदीभिश्च इत्यनेन संख्यावाचकं पदं नद्यन्त नदीवाचकैः शब्दैः सह समस्यते. तत्र समाहारार्थे समासः भवति. पञ्चानां गङ्गानां समाहारः पञ्चगङ्गम् इत्यादिवत् समासः. एवं सूत्रद्वयेन समासविधानं भवति. सर्वेषु अर्थेषु उदाहरणानि ज्ञातानि. अव्ययीभावे समासप्रक्रियायां प्रायेण अव्ययस्यैव पूर्वनिपातः भवति. किमर्थम्? प्रथमानिर्दिष्टम्. समासविधायकसूत्रे प्रथमानिर्दिष्टम् अव्ययम्, अतः उपसर्जनं पूर्वम् इत्यनेन पूर्वनिपातः भवति. सुपोधातुप्रातिपदिकयोः इत्यनेन सुब्लुक् भवति. ह्रस्वो नपुंसके प्रातिपदिकस्य. अव्ययीभावसमासस्य नपुंसकलिङ्गत्वमस्ति, अतः ह्रस्वः भवति. यदि दीर्घान्तः शब्दः शाला, नदी इत्यादि, तेषां ह्रस्वः भवति ह्रस्वो नपुंसके प्रातिपदिकस्य इति. अदन्तस्य अव्ययीभावस्य विषये विशिष्य ध्यानम् अपेक्षितं भवति. तत्र सामान्यतः यदि अव्ययीभावसमासः तर्हि अव्ययादाप्सुपः इत्यनेन सुप्रत्ययस्य लोपः भवति. अधिहरि, अधिगुरु इत्यादिषु.
किन्तु यदि अकारान्तः अव्ययी भावः तर्हि नाव्ययी भावा रतोऽंशपञ्चम्याः इत्यनेन सुप्रत्ययस्य लोपः निषिध्यते, पञ्चमीं विना अमादेशः भवति, अतः अधिवृक्षम् अधिशालम् इत्यादि भवति, सः अमादेशः पञ्चमीविभक्तौ न भवति, अतः अधिवृक्षात् इति तृतीया सप्तम्योः विकल्पेन अम्भावः भवति, अधिवृक्षम् अधिवृक्षेण अधिवृक्षे अधिवृक्षम् इति रूपद्वयं भवति, अन्यासु विभक्तिषु अधिवृक्षम् इत्येव भवति। अपि च यदि सः इति अव्ययम् अस्ति तर्हि तस्य स्थाने स इति आदेशः भवति अव्ययीभावे चाकाले इति सूत्रेण। सदृशः सख्या, सः सखि, तत्र सः इत्यस्य स इति आदेशे ससखि इति रूपं भवति। एते प्रक्रियांशाः समासान्ताः दृष्टाः अव्ययीभावसमासे विशिष्य शरदादिगणे विद्यमानेभ्यः शब्देभ्यः। नित्यं टच् समासान्तः भवति, अन्नन्तात् पुं स्त्रीलिङ्गात् नित्यं टच् भवति, अन्नन्तात् नपुंसकलिङ्गात् विकल्पेन टच् भवति, झयन्तादव्ययीभावात् विकल्पेन टच् भवति इति अव्ययीभावे समासान्ताः। अस्मिन् पाठे वयं तत्पुरुषसमासस्य विषये जानीमः। प्रश्नः अस्ति वा भगिनि?
अस्तु भगिनि। गतवर्षे पञ्चगङ्गम् इति एक प्रक्रिया आसीत् किल भगिनि, तत्र पञ्च इति पूर्वमेव अस्ति, तर्हि तत्र पूर्वनिपातः इति तदपि विद्यते वा प्रक्रियायां?
प्रक्रियायां लेखनीयम् इति नास्ति, किन्तु सर्वदा तत् स्मर्तव्यं। वयं सामान्यतः किं कुर्मः, तत्पुरुषसमासे अपि इदानीं दृश्यते, वयं यत् पूर्वपदमस्ति तदेव आदौ लिखामः चेत् विशिष्य पूर्वनिपातः न लेखनीयः भवति, किन्तु सर्वत्रापि तदस्ति इति तु स्मर्तव्यम्। सर्वत्रापि उपसर्जनं पूर्वम् इत्यस्ति इत्यतः एव तत् पूर्वं भवति, नो चेत् उभयथापि रूपं भवति। विशिष्य लेखनीयमेव इति नास्ति, स्मर्तव्यं, सर्वेषु समासेषु पूर्वनिपातः भवत्येव। अत्र अन्यः प्रश्नः, हिमवत् इत्यस्य झयन्तत्वात् झयः इति विकल्पः भवति वा इति प्रश्नः। न भवति, शरदादिगणे पाठः अपवादभूतः। यदि शरदादिगणे अस्ति तर्हि सः नित्यं प्राप्नोति एव, नो चेत् शरदादिगणे हिमवत् शब्दस्य पाठः एव व्यर्थः। झयन्तत्वात् स्वयं अन्नन्तसहितम् एकं रूपं भवति, तद्विरहितम् अपरं रूपं भवति चेत् शरदादिगणे हिमवत् शब्दस्य पाठः किमर्थः? पाठः व्यर्थः। अतः यदि शरदादिगणे शब्दः अस्ति, सः झयन्तो वा अस्तु अन्नन्तो वा अस्तु, यत्किमपि भवतु नित्यमेव टच् भवति। यदि शरदादिगणे नास्ति तदा एव अन्येषां सूत्राणां प्रसक्तिः भवति। अन्ये केऽपि प्रश्नाः सन्ति वा एतावता दृष्टेषु अंशेषु? तर्हि अस्मिन् पाठे वयं तत्पुरुषाधिकारं दृष्ट्वा द्वितीया तत्पुरुषसमासस्य विधानं जानीमः। तत्र तत्पुरुषसमासः समासस्य द्वितीयः प्रभेदः। तत्र तत्पुरुषसमासे पुनः चत्वारः प्रभेदाः भवन्ति, सामान्यतत्पुरुषः, कर्मधारयः, द्विगुः, नञ् प्रभृतयः इति चतुर्धा विभागः तत्पुरुषसमासे एव क्रियते। अतः एते सर्वेऽपि समासाः तत्पुरुषाः एव।
तत्र सामान्य तत्पुरुषः इत्युक्ते अस्माभिः सामान्यतः द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी इति षट् प्रभेदाः सन्ति. प्रथमा तत्पुरुषः इति नास्ति. वस्तुतः प्रथमा तत्पुरुषः इति व्यवहारः कदाचित् क्रियते, तस्य व्याकरणशास्त्रे एकदेशीसमासः इति व्यवहारः. एवं सप्तधा सामान्य तत्पुरुषसमासः भवति. कर्मधारयः, कर्मधारये नव अन्तर्भेदाः उच्यन्ते. वस्तुतः समासः इत्यस्य सामान्य अध्ययनार्थं, सूत्रैर्विना समासस्य अध्ययनार्थं संस्कृतभारत्याः समासपुस्तकम् अत्यन्तम् उपयोगि भवति. यदि भवतां समीपे तत् पुस्तकं नास्ति कृपया क्रीणन्तु. सः तत् पुस्तकं महता वैयाकरणेन रचितं, महाबलेश्वरभट्टाः इति ते महान्तः वैयाकरणाः. समग्रं पाणिनीयशास्त्रे समाससम्बद्धं यद्यदस्ति तत्सर्वमपि आलोड्य तैः समासप्रकरणस्य सारः गृहीतः. अतः आरम्भिकस्तरे पठितुं पाठयितुं च तत् पुस्तकम् अत्यन्तम् उपयुक्तं भवति. तत्र कर्मधारयसमासे नवप्रभेदाः उच्यन्ते, किन्तु लघुसिद्धान्तकौमुद्यां तत्र त्रिविधस्य समासस्य एव अध्ययनं भवति. विशेषणपूर्वपदस्य उपमानपूर्वपदस्य दिक् संख्यावाचकानां च अध्ययनं भवति लघुसिद्धान्तकौमुद्यां. नवप्रभेदाः सन्ति कर्मधारये. पुनश्च द्विगुसमासः अस्ति. द्विगुसमासः त्रिविधः, तद्धितार्थद्विगुः, उत्तरपदद्विगुः, समाहारद्विगुः इति. नञ् प्रभृतयः इति पञ्च, ते वस्तुतः परस्परसम्बद्धाः न, मिसलेनियस् इति यदुच्यते तथा पञ्चसमासाः सन्ति. नञ् समासः, कुसमासः, गतिसमासः, प्रादिसमासः, उपपरसमासः. एते सर्वे अपि तत्पुरुषसमासाः अस्मिन् प्रकरणे अस्माभिः अधीयन्ते. अष्टाध्याय्यामपि तत्पुरुषाधिकारः एव अत्यन्तं बृहत् अस्माभिः प्रथमवर्गे दृष्टं. तत्पुरुषाधिकारे प्रायः सप्ततिः सूत्राणि सन्ति. आहत्य समासविधायकानि सूत्राणि शतं सूत्राणि, तत्र उपसप्ततिसूत्राणि तत्पुरुषसमाससम्बद्धानि एव. तत्र एते सर्वविधाः समासाः अस्मिन् प्रकरणे अस्माभिः अधीयन्ते. तत्र आदौ सामान्यतत्पुरुषेण आरभ्यते. तत्र तत्पुरुषः इति प्रथमं सूत्रं, द्वितीयाध्याये प्रथमपादे द्वाविंशम् इदं सूत्रम्. एकमेव पदमस्ति प्रथमाविभक्तौ. इदम् अधिकारसूत्रम्. पुनः पुनः उच्यते मया, पाणिनिना समासानां विधानम् अर्थम् आश्रित्य न कृतम्, अधिकारम् आश्रित्य. इतारभ्य एतत्पर्यन्तम् अव्ययीभावः, इतारभ्य तत्पर्यन्तं तत्पुरुषः इत्येवमेव उच्यते. अतः अनेन सूत्रेण तत्पुरुषः इति संज्ञा अधिक्रियते. इत आरभ्य यद्यदुच्यते तत्सर्वमपि तत्पुरुषसमासः. अधिकारोऽयं प्राक् बहुव्रीहेः, तत्र अग्रे द्वितीयपादे शेषो बहुव्रीहिः इत्यनेन बहुव्रीहि समासः उच्यते. तत्पर्यन्तमपि तत्पुरुषाधिकारः 2122 तः आरभ्य 2222 एतत्पर्यन्तं तत्पुरुषाधिकारः भवति. अस्मिन् पादे द्वितीयाध्यायस्य प्रथमपादे द्विसप्ततिः सूत्राणि सन्ति, 72. सो 22 to 72, 50 सूत्रास् इन् दिस् पाद एण्ड् 20 सूत्रास् इन् द नेक्स्ट् पाद. आहत्य प्रायः सप्ततिः सूत्राणि तत्पुरुषाधिकारे सन्ति. तत्पुरुषः इत्युक्त्वा ततः द्विगुश्च इति अग्रिमं सूत्रम्. द्विगुः इति प्रथमा एकवचनान्तं, च इति अव्ययं, तत्पुरुषः इति अनुवर्तते. इदं संज्ञासूत्रं. द्विगुसमासस्य तत्पुरुषसंज्ञा दीयते. द्विगुरपि तत्पुरुषसंज्ञकः स्यात्। द्विगुसमासस्य अपि तत्पुरुषसंज्ञा भवति। सामान्यतः वयं पश्यामः समासस्य एका एव संज्ञा भवति, अव्ययीभावः भिन्नः, तत्पुरुषः भिन्नः, एवं द्विगुः अपि भिन्नः समासः एव भवतु इति चेत् तत्र क्लेशः अस्ति। एतमंशं वयं यदा द्विगुसमासं पश्यामः तदा सम्यक् ज्ञायते। द्विगुसमासस्य द्विगुसंज्ञा अपि अस्ति, तत्पुरुषसंज्ञा अपि अस्ति। समाससंज्ञाद्वयमपि भवति, तस्य प्रयोजनमपि अस्ति। द्विगुश्च इति सूत्रेण द्विगुसमासस्य तत्पुरुषसंज्ञा दीयते। एतत्तु पीठिका, तत्पुरुषः इति अधिकारः आरब्धः। अस्मिन् अधिकारे प्रथमं विधिसूत्रमस्ति, द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः इति। पदच्छेदः कथम्? द्वितीया इति प्रथमा विभक्त्यन्तं पदम्, श्रित अतीत पतित गत अत्यस्त प्राप्त आपन्नैः इति तृतीया बहुवचनम्। अस्माभिः समाससूत्रस्य सामान्य स्ट्रक्चर् ज्ञायते, प्रथमान्तं तृतीयान्तं। सुप् सुपासः, अव्ययं सुपन् सुबन्तेन सह, संख्या नदीभिः सह इत्येवमेव भवति। एवं द्वितीयान्तं श्रितादिभिः, समासः इति अधिकारः, सः सुपा इति अनुवर्तते, तत्पुरुषः इति अधिकारः। इदं विधिसूत्रम्। अनेन किं विधीयते? द्वितीया तत्पुरुषसमासः विधीयते। अत्र सामान्यतत्पुरुषे या विभक्तिः आदौ निर्दिश्यते ताम् आश्रित्य एव समासस्य नामकरणं दीयते। यत्र पूर्वपदं द्वितीयान्तं भवति सः समासः द्वितीया तत्पुरुषः, यत्र पूर्वपदं तृतीयान्तं भवति सः तृतीया तत्पुरुषः इत्यादि। सूत्रस्य अर्थः कः? द्वितीयान्तं, द्वितीया इत्युक्ते द्वितीया विभक्त्यन्तं सुबन्तम्, श्रित अतीत पतित गत अत्यस्त प्राप्त आपन्नैः, श्रितादिप्रकृतिकैः सुबन्तैः। सुबन्तं सुबन्तेन इत्यस्ति। प्रथमं सुबन्तं किं भवेत्? द्वितीया विभक्त्यन्तं भवेत्। द्वितीयं सुबन्तं किं भवेत्? श्रित अतीत इत्यादि प्रकृतिः नाम प्रातिपदिकं यत्र, तादृशं सुबन्तं भवेत्। द्वितीयान्तं श्रितादिप्रकृतिकैः सुबन्तैः सह वा समस्यते। तत्र समासाधिकारे सामान्यतः महाविभाषा इत्यस्ति। प्रायः सर्वोऽपि समासः वैकल्पिकः, विग्रहेणापि प्रयोगः कर्तुं शक्यते, समस्तपदत्वेनापि प्रयोगः कर्तुं शक्यते। अतः कृष्णं श्रितः इति वाक्यम् अपि साधु, कृष्णश्रितः इति समासः अपि साधु। केचन नित्यसमासाः, तद्विषये अपि ज्ञातवन्तः, यत्र विग्रहः न भवति, कृष्णस्य उप इति नोच्यते, उपकृष्णम् इत्येव समासः, सः नित्यसमासः। किन्तु एते सर्वेपि समासाः वैकल्पिकसमासाः। द्वितीयान्तं श्रितादिप्रकृतिकैः सुबन्तैः सह वा समस्यते, स च तत्पुरुषः, तादृशः समासः तत्पुरुषसमासः इति उच्यते। कृष्णं श्रितः, कृष्णश्रितः इत्यादि उदाहरणानि दीयन्ते। अत्र प्रक्रियां पश्यामः। तत्पुरुषसमासे प्रक्रिया सरला एव भवति। एतावता प्रक्रियायाः सामान्यांशाः ज्ञाताः, सम्यक् अभ्यासः अपि कृतः। अतः इतः परं प्रक्रिया सामान्यतः सरला एव। यत्र समासान्तः अस्ति तत्रैव विशेषः, तद्विहाय अन्यत्र प्रक्रिया अत्यन्तं सरला। श्रितः कृष्णम् इति स्वीकुर्मः, कृष्णं श्रितः, श्रितः कृष्णम् उभयमपि समानम्। अत्र श्रित सु कृष्ण अम् इति अलौकिकविग्रहः। द्वितीया श्रितातीत पतित गतात्यस्त प्राप्तापन्नैः इति तत्पुरुषसमासः
क्रियते समासे कृते सुपो धातु प्रातिपदिकयोः इत्यनेन प्रत्ययस्य लोपः श्रित कृष्ण इदानीम् अत्र उपसर्जनं पूर्वम् कथम् उपसर्जनं प्रथमा निर्दिष्टं समास उपसर्जनम् अत्र समाससूत्रं किमस्ति द्वितीया श्रितातीत पतितगतात्यस्त प्राप्त आपन्नैः सो द्वितीया इति प्रथमा विभक्त्यन्तं श्रितादीति तृतीयान्तं सो प्रथमान्तं किं द्वितीया अतः द्वितीया विभक्त्यन्तस्य उपसर्जनसंज्ञा भवति प्रथमा निर्दिष्टं समास उपसर्जनम् इत्यनेन तम् आश्रित्य उपसर्जनं पूर्वम् इति पूर्वनिपातः इदानीमेव भगिनी पृष्टवती अत एव मया एवं प्रदर्शिन श्रितः कृष्णम् इति यदि वयं कृष्णं श्रितः इति लिखित्वा कृष्णां श्रितसु इत्येव लिखामः तर्हि एतत् लेखनीयं न भवति तथापि अस्ति एवं लिखामः चेदपि कृष्णश्रितः इत्येव समासः श्रितकृष्णः इति न तदर्थमेव तत्प्रदर्शनार्थम् एवं लिखितम् विग्रहवाक्यस्य लेखनं केनापि प्रकारेण भवतु श्रुतः कृष्णमिति वा कृष्णं श्रुतः इति वा तत्र समस्तपदे कृष्ण इत्यस्यैव पूर्वनिपातः भवति उपसर्जनं पूर्वम् इति नियमात् कृष्णश्रित इति इदानीं प्रातिपदिकं तस्मात् सु औजस् इत्यनेन सुप्रत्ययः क्रियते कृष्णश्रित सु ससजुषोरुः इत्यनेन ऋत्वं भवति खरवसानयोर्विसर्जनीयः इत्यनेन विसर्गः कृष्णश्रितः इति समस्तं पदं प्रथमा विभक्तौ कृष्णं श्रितः श्रितः आश्रयं यः स्वीकृतवान् शरणागतः सः हि हु हस् टेकन् रेफ्यूज् इन् कृष्ण और् सरेण्डर् टु कृष्ण कृष्णं यः श्रितः अतः अत्र कस्य प्राधान्यम् कृष्णश्रितः एषः गच्छति इत्युक्ते कृष्णः न गच्छति यः श्रितः कृष्णे यः आश्रयं स्वीकृतवान् स एव गच्छति अतः उत्तरपदार्थप्रधानः तत्पुरुषः अत्र कृष्ण इत्यस्य न प्राधान्यं श्रित यः श्रितः तस्यैव प्राधान्यं भवति अवगतं केऽपि प्रश्नाः सन्ति वा एतावता
Bhagini, can you please show the slide previous to this? Actually, I have two doubts. Actually, very general doubt only regarding the whole like description of the sutras. Always, right from the beginning, we have been seeing that you will sutra cheda has done, and then within brackets you put the anuvartate, whatever is conveyed.
It's taken from previous sutra. Yes.
So how do we? Is it by hearting this thing we have to learn it, or how do we know what is anuvartate? What is taken from the previous sutra?
Why is the Ashtadhyayi? See, that is why there are two methods of studying the sutras. One is the Ashtadhyayi Krama and the other is the Siddhanta Kaumudi or the Labha Siddhanta Kaumudi Krama. What happens is Anuvratti is always taken from previous to the later. So when we are going in the order of the Ashtadhyayi, it is usually obvious what comes over. Sometimes there is a doubt, and always where there is a doubt, Vyakhyanato Vishesha Pratipattihi. We have to refer to texts like the Bhashya or the Kashika to understand what is the Anuvratti. But otherwise, in the Ashtadhyayi order, since the sutras are usually put according to Prakarana, say he starts the Itsamya and he gives a list of sutras, it is very obvious that all of it is referring to It. Similarly, he starts with Samasa and then Tatpurusha and then he does it. So, it is all taken. In the Ashtadhyayi order, it is more obvious. Whereas, in the Siddhanta Kaumudi order, the problem is that we don't know what is the Anuvritti. At least, in the Samasa Prakarana, it is better because we usually take it in
reasonable order. It usually goes, it skips some things in between, but the order is usually maintained. But in other prakaranas, the order has been changed. So for that, it is very important to know what exactly are we taking from the previous sutras. How do we know it? One, of course, through experience, through practice, you have to learn it. So, and the second, you should also have the Ashtadhyayi. There is a very good edition of the, there are two editions of the Ashtadhyayi. One is by Pushpa Dikshit, published by the Samskrita Bharati, which says Prakarana Nirdesha Samanvitaha, where she indicates each Prakarana. So by knowing, looking at the Prakarana itself, we know what all is taken. There is also one more edition, I think, by Chaukamba, which specifically gives the Anuvritti in bold. And it mentions till which sutra we have the Anuvritti. Okay, this is the book. Can you see the book? I'm not sure.
No, it's not clear. Yeah, Ashtadhyayi.
Yeah, yeah, I'll send a snap of this. So if you look at this in each pada, I mean in each sutra, there is something in bold. Okay, and there is also a number after it, which tells you that that word is taken as Anuvritti till where. Okay. So if you have this edition, I'll send a snap in the group later. It is by Chaukamba. Ashtadhyayi. Prapathaha by Chaukamba. So this has the information also. With all this, it requires a bit. Sometimes Anuvritti is like there is debatable, so it's there. But generally, using that book, it is possible to know the Anuvritti.
So in no case you cannot skip a word. Say for example, you have only taken Saha Supa Tatpurushaha and you have left Samasa. So is there any rule that you include all the Anuvritti words?
You don't include all the Anuvritti, you don't get the Sutra Artha. What happens in the Siddhanta Kaumudi or Lagu Siddhanta Kaumudi is, he has derived the Sutra Artha taking all this. It is basically, if you know all the words in the Sutra, you can write the Sutra Artha yourself. You don't need this actual text. Okay? But that is what they would have done for our convenience. Pattoji Dikshita has combined all the Anuvritti words and given us the complete Sutra Artha. If we don't have the Samasa here, we don't even know that this is a Samasa. So, it is because of that word that we are saying this is a Samasa.
And so, how do we know this is Vidhi Sutram, this is Adhikara Sutram?
Meaning.
Meaning.
Depending on the meaning only. So nobody actually specifies it, so it just clarifies things, that is why I am putting it on these slides. But the meaning of the sutra tells you what exactly is it doing, it is giving a name or is it giving some operation and so on.
Okay. Dhanyavadha Bhagini.
Okay. So Ranim, Dvitiya Tatpurusha Vidhayakam Sutram Idam. Krishnam Shritaha, Krishna Shritaha, Iti Ekam Udaharanam, Tatra Prakriya Drishta. Idani Aparani Udaharanani, Tatra Shrita Atita Gata Atyasta Prapta Apannaihi Ityasti. Atita Shrita Atita Atitaha Parangataha, he who is beyond Ityarthaha. So Dukkham Atitaha, Dukkhatitaha, we call Gunatitaha. Ityadi. So dukkham atitaha, dukkham iti dvitiyantam, atitaha iti subantena saha samasyate, anena sutrena dvitiya shritatita, dukkhatitaha, sukhatitaha, gunatitaha, varnanatitaha, beyond description, varnanam atitaha, varnanatitaha. So the dvitiya can change. You can put any relevant dvitiyanta, samartham. Tattu sarvadasmartamayam, yatra samarthyam asti, tatra eva bhavati. Ataha, etat padam asmakam vivaksham ashritya bhavati. Dvitiya, generally yat sutre nirdishtam, tad yatkimapi dvitiyantam bhavati. Kintu uttara padam yaduktam teshu eva anyatamam bhavet. Tatra anyatkimapi yojayitum na shakyate. Iti samasasya niyamaha. Shrita, Atita, Patita, Gata, Atyasta, Prapta, Apanna. Ete Sapta Padani, Eva Bhaveyuhu. Anyat Kimapi, Asmadhihi, Parivartaitum, Na Shakyate.
पूर्वपदं यत्किमपि द्वितीयान्तम् अर्थम् आश्रित्य अस्माभिः योजयितुं शक्यते. कष्टम् अतीतः यत्किमपि. एवं पतितः, कूपं पतितः, कूपपतितः. कूपं पतितः इत्यस्य अर्थः कः? हि हू हेज् फालन् इन् टु द वेल्. तत्र पतितशब्दस्य विषये एतत् स्मर्तव्यम्, सामान्यतः पतित इत्यत्र पञ्चम्याः एव योगः भवति, वृक्षात् पतितः, प्रासादात् पतितः इत्यादि. वि आल्वेस् टाक् आफ् फालिङ्ग् फ्रम्, तद्भिन्नम्. दिस् इस् फालिङ्ग् टु, हि फाल्स् टु द ग्रौण्ड्. यथा उपरिष्टात् अधः पतनं भवति, भूमिं पतितः इत्यादि तत्र अनेन सूत्रेण समासः भवति. कूपं पतितः, ग्रामं गतः, ग्रामगतः. गतः शब्दस्य अर्थः ज्ञायते. वनं गतः, वनगतः. गृहं गतः, गृहगतः. यत्किमपि भवति. अत्यस्तः, अत्यस्तः अतीत्य गतः, नाम हि हू हेज् क्रास्ड् इत्यर्थः. मध्ये किमपि अस्ति. तुहिनम् अत्यस्तः, हि हू हेज् क्रास्ड् द स्नो. तुहिनं हिमम् इत्यर्थः. तुहिनम् अत्यस्तः, तुहिनात्यस्तः. मार्गमत्यस्तः, मार्गात्यस्तः. और् समुद्रमत्यस्तः. यत्किमपि भवितुम् अर्हति. वनम् अत्यस्तः. मध्ये यत्किमपि अत्येतुं कष्टकरं किमपि भवति, तद् अतीत्य गतवान् इत्यर्थे अयं प्रयोगः. प्राप्तः, गतः, प्राप्तः सामान्यतः समानम्. लक्ष्यं प्राप्तः, हि हु हेज् रीच्ड् द टार्गेट्. लक्ष्यप्राप्तः, सुखप्राप्तः, धनप्राप्तः, धनं प्राप्तः. कष्टम् आपन्नः. प्राप्तः, आपन्नः अर्थः सामान्यतः समानः, किन्तु आपन्नः इत्यत्र ईषत् नेगेटिव् मीनिङ्ग् भवति. इत्युक्ते आपन्नः न, हि वास् हि डिड् नाट् वाण्ट् टु बट् हि स्टिल् रीच्ड् इट् और् हेड् इट् इत्यर्थे सामान्यतः. कष्टम् आपन्नः, कष्टापन्नः, दुःखापन्नः, संशयापन्नः, संशयम् आपन्नः इत्यादि. एवं द्वितीया, श्रित, अतीत, पतित, गत, अत्यस्त, प्राप्त, आपन्नैः एतैः सुबन्तैः सह द्वितीया विभक्त्यन्तं समस्यते. तस्य समासस्य द्वितीया तत्पुरुषः इति नाम भवति. एतेषां वाक्येषु प्रयोगः कथं कर्तव्यः इति मुख्यम्. विष्णुश्रितम् अम्बरीशम् दुर्वाससः शापः न अस्पृशत्. दुर्वाससः शापः अम्बरीशं स्प्रष्टुं नाशक्नोत्. किमर्थम्? अम्बरीशः विष्णुश्रितः, विष्णुं श्रितः. अम्बरीश हेड् टेकन् रेफ्यूज् इन् विष्णु. सो द कर्स् आफ् दुर्वास कुड् नाट् टच् अम्बरीश हू हेड् टेकन् रेफ्यूज् इन् विष्णु. सो विष्णुश्रितः इति अम्बरीशस्य विशेषणम्. अम्बरीशः विष्णुश्रितः. तादृशं विष्णुश्रितम् अम्बरीशं दुर्वाससः शापः न अस्पृशत्. वि हाव् कम् औट् फ्रम् अव्ययीभाव. तत्पुरुषसमासे यः शब्दः अस्ति, कृष्णश्रितः अथवा विष्णुश्रितः, तस्य सर्वेषु वचनेषु सर्वासु विभक्तिषु रूपाणि भवन्ति. यथा रामः, रामौ रामाः, एवं विष्णुश्रितः, विष्णुश्रितौ, विष्णुश्रिताः. विष्णुश्रितं, विष्णुश्रितौ, विष्णुश्रितान्, सर्वासु विभक्तिषु सर्वेषु वचनेषु प्रयोगः भवति. एते भक्ताः विष्णुश्रिताः. विष्णुश्रितान् भक्तान् अहं प्रणमामि. विष्णुश्रितैः भक्तैः हरिभजनं क्रियते. विष्णुश्रितेभ्यः भक्तेभ्यः दक्षिणां देहि. विष्णुश्रितेभ्यः भक्तेभ्यः आशिषं स्वीकुरु. विष्णुश्रितानां भक्तानां सहवासः सद्गतिप्रदः. विष्णुश्रितेषु भक्तेषु मम गौरवमस्ति. एवं सर्वासु विभक्तिषु सर्वेषु वचनेषु प्रयोगः भवति. प्रयोगः ज्ञातव्यः. केवलं समासप्रकरणे अस्माभिः सामान्यतः किं क्रियते, कृष्णं श्रुतः कृष्णश्रुतः इति कण्ठस्थीकृत्य परीक्षायां तदेव लिखित्वा समासप्रकरणस्य समासात्यस्ताः भवामः. किन्तु तेन प्रयोजनं नास्ति. वस्तुतः किं भवति, यदा कुत्रापि काव्ये प्रयोगः दृश्यते तस्य अवगमनं भवेत्. अस्माभिरपि समासान् उपयुज्य वाक्यरचनायाः सामर्थ्यं वर्धनीयं. तदपि लक्ष्यं भवति समासप्रकरणस्य अध्ययनस्य. अतः यथाशक्ति वाक्येषु प्रयोगस्य अभ्यासः करणीयः. तत्रैव दोषाः भवन्ति, किन्तु अभ्यासेन दोषाः परिष्क्रियन्ते. वर्णनातीतं सौन्दर्यं हिमालयस्य. हिमालयस्य सौन्दर्यं वर्णनाम् अतीतम्. सो इस् बियाण्ड् डिस्क्रिप्शन्. द ब्यूटी आफ् हिमालयस् इस् बियाण्ड् डिस्क्रिप्शन्. वर्णनातीतं सौन्दर्यम्, अत्र सौन्दर्यम् अस्ति, अतः वर्णनामतीतं वर्णनातीतम् इति नपुंसकलिङ्गः शब्दः. कूपपतितं सूरदासं श्रीकृष्णः स्वयम् उद्दधार. सूरदासः इति कृष्णभक्तः, अन्धः. सः यदा कूपं पतितः तदा श्रीकृष्णः स्वयमागत्य तम् उपरि आनीतवान्. अतः कूपपतितं सूरदासं श्रीकृष्णः स्वयम् उद्दधार. काननात्यस्ताः पान्थाः सन्तोषेण परस्परम् आलिङ्गितवन्तः. काननम् अत्यस्ताः, हेविङ्ग् क्रास्ड् द फारेस्ट्. तेषु दिनेषु पद्भ्यामेव गमनं भवति. तत्र काननेषु वन्यमृगाः भवन्ति अथवा चोराः भवन्ति, भयं बहुधा भवति. अतः काननात्यस्ताः, काननम् अतीत्य पान्थाः, ट्रावेलर्स् इत्यर्थः, सन्तोषेण परस्परम् आलिङ्गितवन्तः. दारिद्र्यापन्नस्य मित्रस्य साह्यं कर्तुम् इच्छामि. दारिद्र्यम् आपन्नम्, दारिद्र्यापन्नं मित्रम्. सो अ फ्रेंड हू हैज फॉलन इंटू पॉवर्टी. सो तस्य साह्यं कर्तुम् अहम् इच्छामि. इत्येवं वाक्येषु प्रयोगः कर्तुं शक्यते, करणीयः. सो अद्यतन संक्षेपः. तत्पुरुषाधिकारः दृष्टः. तत्पुरुषः इति संज्ञा अधिक्रियते. तत्र द्विगुसमासस्यापि तत्पुरुष संज्ञा दीयते. पुनश्च द्वितीया तत्पुरुषस्य विधानम् एकमेव सूत्रं लघुसिद्धान्तकौमुद्याम् अस्ति. अन्यानि सूत्राणि सन्ति. अत्र तु द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः एतैः सुबन्तैः सह द्वितीयान्तं समस्यते, सः तत्पुरुषसमासः. अद्यतनप्रश्नाः. द्वितीया श्रितातीत इति सूत्रस्य अर्थं सोदाहरणं विवृणुत. नदीं प्राप्ताः, अत्र समस्तपदं सप्रक्रियं प्रदर्शयत. कथं प्रक्रिया भवति, रूपं किं भवति. द्वितीया तत्पुरुषम् उपयुज्य पञ्चवाक्यानि रचयत इति अन्यः अभ्यासः. येनाक्षरसमां न्यायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं. नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम्.